कार्यत्वादकृतं न कर्म न च तज् जीवप्रकृत्योर्द्वयोरज्ञाया प्रकृतिः स्वकार्यफलभोग् भावानुषङ्गात् कृतिः नैकस्याः प्रकृतेरचित् त्वलसनाज जीवोस्य कर्ता ततो जीवस्यैव च कर्म तच्चिदनुगम ज्ञातानयत् पुद्गलः।